ओम नमो भगवते वासुदेवाय। अथाष्टपञ्चाशत्तमोऽध्यायः। श्रीशुक उवाच। एकदा पाण्डवान् द्रष्टुम् प्रतीतान् पुरुषोत्तमः इन्द्रप्रस्थम् गतः श्रीमान् युयुधानादिभिर्वृतः। दृष्ट्वा तमागतम् पार्था मुकुन्दमखिलेश्वरम् उत्तस्थुर्युगपद्वीराः प्राणामुख्यमिवागतम् परिष्वज्याच्युतम् वीरा अङ्गसङ्गः तैन सह। सानुरागस्मितम् वक्त्रम् वीक्ष्य तस्य मुदम् ययुः। युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् फाल्गुनम् परिरभ्याथ यमाभ्याम् चाभिवन्दितः। परमासन आसीनम् कृष्णाकृष्णमनिन्दिता नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत। तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः। निषसादासनेऽन्ये च पूजिताः पर्युपासत। पृथाम् समागत्य कृताभिवादनस्तयाति हार्दार्द्रदृशाभिरम्भितः। आपृष्टवान्स्ताम् कुशलम् सहस्नुषाम् पितृस्वसारम् परिपृष्टबान्धवः। तमाह प्रेम वैक्लव्य रुद्धकण्ठाश्रुलोचना स्मरन्ति तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम्। तदैव कुशलम् नोऽभूत् सनाथास्ते कृता वयम्। ज्ञातीन्नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया। न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः तथापि स्मरताम् शश्वत् क्लेशान् हंसि हृदि स्थितः। युधिष्ठिर उवाच। किम् न आचरितम् श्रेयो न वेदाहमधीश्वर योगेश्वराणाम् दुर्दर्शो यन्नो दृष्टः कुमेधसाम् इति वै वार्षिकान् मासान् राज्ञासोऽभ्यर्थितः सुखम्। जनयन्नयनानन्दमिन्द्रप्रस्थौकसाम् विभुः। एकदा रथमारुह्य विजयो वानरध्वजम् गाण्डीवम् धनुरादाय तूणौ चाक्षयसायकौ। साकम् कृष्णेन सन्नद्धो विहर्तुम् विपिनम् वनम् बहुव्यालमृगाकीर्णम् प्राविशत्परवीरः। तत्राविध्यच्छरैर्व्याघ्रान् सूकरान् महिषान् रुरून् शरभान् गवयान् खड्गान् हरिणान् छशशल्लकान् तान्निन्युः किङ्कराराज्ञे मेध्यान् पर्वण्युपागते। त्रिट्परीतः परिश्रान्तो बीभत्सुर्यमुनामगात् तत्रोपस्पृश्य विशदम् पीत्वा वारि महारथौ। कृष्णौ ददृशतुः कन्याम् चरन्तीम् चारुदर्शनाम् तामासाद्यवरारोहाम् सुद्विजाम् रुचिराननाम् पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्। का त्वम् कस्यासि सुश्रोणि कुतोऽसि किम् चिकीर्षसि मन्ये त्वाम् पतिमिच्छन्तीम् सर्वम् कथय शोभने। कालिन्द्युवाच। अहम् देवस्य सवितुर्दुहिता पतिमिच्छति। विष्णुम् वरेण्यम् वरदम् तपः परममास्थिता नान्यम् पतिम् वृणे वीर तमृते श्रीनिकेतनम्। तुष्यताम् मे स भगवान् मुकुन्दो नाथ संश्रयः। कालिन्दीति समाख्याता वसामि यमुनाजले निर्मिते भवने पित्रा यावदच्युतदर्शनम्। तथा वदद्गुडाकेशो वासुदेवाय सोऽपिताम् रथमारोप्य तद्विद्वान् धर्मराजमुपागमत्। यदैव कृष्ण सन्दिष्टः पार्थानाम् परमाद्भुतम् कारयामास नगरम् विचित्रम् विश्वकर्मणा। भगवांस्तत्र निवसन् स्वानाम् प्रियचिकीर्षया अग्नये खाण्डवम् दातुमर्जुनस्यासारथिः। सोऽग्निस्तुष्टो धनुरदाद्धयाञ्च्छ्वेतान् रथम् नृप अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः। मयश्च मोचितो वन्ने सभाम् सख्य उपाहरत् यस्मिन् दुर्योधनस्यासीत् जलस्थलदृशिभ्रमः। स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः आययौ द्वारकाम् भूय सात्यकि प्रमुखैर्वृतः। अथोपयेमे कालिन्दीम् सुपुण्यर्थवृक्ष ऊर्जिते वितन्वन् परमानन्दम् स्वानाम् परममङ्गलम्। विन्दानुविन्दावावन्त्यौ दुर्योधनवशानुगौ स्वयंवरे स्वभगिनीम् कृष्णे सक्ताम् न्यषेधताम्। राजाधिदेव्यास्तनयाम् मित्रविन्दाम् पितृस्वसुः। प्रसह्य हृतवान् कृष्णो राजन् राज्ञाम् प्रपश्यताम्। नग्नजिन्नाम कौसल्य आसीत् राजाधिधार्मिकः। तस्य सत्याभवत् कन्या देवी नाग्नजिति नृप। न ताम् शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान् तीक्ष्णशृङ्गान् सुदुर्धर्षान् वीरगन्धासहान् खलान्। ताम श्रुत्वा वृषजल्लभ्याम् भगवान् सात्वताम् पतिः जगाम कौसल्यपुरम् सैन्येन महतावृतः स कौसलपतिः प्रीतः प्रत्युत्थानासनादिभिः अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः वरम् विलोक्याभिमतम् समागतम् नरेन्द्रकन्या च कमे रमापतिम् भूयादयम् मे पतिराशिषोमला करोतु सत्या यदि मे धृतो व्रतैः यत्पादपङ्कजरज शिरसा बिभर्ति श्रीरब्जज स गिरिशः सह लोकपालैः लीलातनु स्वकृतसेतु परीप्स एषः काले दधत्स भगवान् मम केन तुष्येत् अर्चितम् पुनरित्याह नारायण जगत्पते आत्मानन्देन पूर्णस्य करवाणि किमल्पकः श्रीशुक उवाच तमाह भगवान् हृष्टः कृतासनपरिग्रहः मेघगम्भीरया वाचा सस्मितम् कुरु नन्दन श्रीभगवानुवाच नरेन्द्रयाच्या कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः तथापि याचे तव सौहृदेच्छया कन्याम् त्वदीयाम् न हि शुल्कदा वयम् राजोवाच कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी किम् त्वस्माभिः कृतः पूर्वम् समयः सात्वतर्षभ पुंसाम् वीर्यपरीक्षार्थम् कन्यावरपरीप्सया सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः एतैर्भग्नासु बहवो भिन्नगात्रा नृपात्मजाः यदि मे निगृहीता स्युस्त्वयैव यदुनन्दन वरो भवानभिमतो दुहितुर्मे श्रियः पते एवम् समयमाकर्ण्य बद्ध्वा परिकरम् प्रभुः आत्मानम् सप्तधा कृत्वा निगृह्णाल्लीलयैव तान् बद्ध्वा तान् दामपि शौरिर्भग्नदर्पान् हतौजसः व्यकर्षल्लीलया बद्धान् बालो दारुमयान्यथा ततः प्रीता सुताम् राजा ददौ कृष्णाय विस्मितः ताम् प्रत्यगृह्णात् भगवान् विधिवत्सदृशीम् प्रभुः राजपत्न्यस्य दुहितुः कृष्णम् लब्ध्वा प्रियम् पतिम् लेभिरे परमानन्दम् जातश्च परमोत्सवः शङ्खभैर्यानकाने दुर्गीतवाद्यद्विजाशिषः नरा नार्यः प्रमुदिताः सुवासः स्रगलङ्कृताः दशधेनुसहस्राणि पारिबर्हमदाद्विभुः युवतीनाम् त्रिसाहस्रम् निष्कग्रीवसुवाससाम् नवनागसहस्राणि नागाच्छतगुणान् रथान् रथाच्छतगुणान् अश्वा नश्वाच्छतगुणान् नरान् दम्पतीरथमारोप्य महत्या सेनया वृतौ स्नेहप्रक्लिन्नहृदयो यापयामास कोसलः श्रुत्वैतद् रुरुधुर्भूपा नयन्तम् पतिकन्यकाम् भग्नवीर्या सुदुर्मर्षा यदुभिर्गोवृषैः पुरा तानस्यत शरभ्रातान् बन्धुप्रियकृदर्जुनः गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया रेमे यदूना मृषभो भगवान् देवकी सुतः श्रुतकीर्ते सुताम् भद्रामुपयेमे पितृस्वसुः कैकेयीम् भ्रातृभिर्दत्ताम् कृष्णः सन्तर्दनादिभिः सुताम् च मद्राधिपतेर्लक्ष्मणाम् लक्षणैर्युताम् स्वयंवरे जहारैकः स सुपर्णः सुधामिव अन्याश्चैवम् विधा भार्याः कृष्णस्यासन् सहस्रशः भौममहत्वा तन्निरोधा दाहृताश्चारुदर्शनाः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे अष्टमहिष्युद्वाहो नामाष्टपञ्चाशत्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।